एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। प्रधानमन्त्रिणा बालेन्द्रसायेन जैविकोत्पादनानां प्रमाणीकरणस्य व्यवस्थां स्वदेशे एव विधातुं निर्दिष्टं वर्तते। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य अर्ग्यानिक एसोसिएसन नेपाल इत्याख्यस्य जैविक प्राकृतिक कृषि व्यवसायीनां सङ्घटनस्य पदाधिकारिभिः सह ह्य सम्भूते विमर्शने प्रधानमन्त्रिणा शाहेन जैविक मलस्य उत्पादकेभ्य नैजेभ्य उद्योगेभ्य सहकारी संस्थाभ्यश्च याचनायाः अनुसारेण अनुदानसहयोगस्य व्यवस्थां विधातुं सम्बद्धाः निकायाः निर्दिष्टाः वर्तन्ते। तदवसरे प्रधानमन्त्री शाह अनियन्त्रितस्य रासायनिकमलस्य विषाक्तानाम् औषधानां च प्रयोगं नियम्य जैविक कृष्योत्पादनानां प्रवर्धनस्य कृते सर्वकारेण आवश्यकः कार्यक्रमः सञ्चालयिष्यते इति अवोचत्। विमर्शने जैविकोत्पादनानाम् अन्तर्राष्ट्रियजगति प्रमाणीकरणस्य व्यवस्था अत्यधिकमहर्गा वर्तते इत्यतः सर्वकारस्य पक्षतः स्वदेशे एव जैविकमलं प्रयुज्य उत्पादितानां वस्तूनां परीक्षणस्य व्यवस्था विधातव्येति व्यवसायिभिः अभियाचितम् आसीत्। मध्यप्रदेशस्य पूर्वार्थमन्त्रिणा शैलेन्द्रप्रसाद शाहेन सहितानां सप्तानां जनानां विरुद्धे एकोनचत्वारिंशतः कोटीनाम् एकोनचत्वारिंशतः लक्षाणां च रूप्यकाणां भ्रष्टाचारस्य अभियोगे विशेष न्यायालये आरोपपत्रं पञ्जीकारितं वर्तते। सर्लाई जनपदस्य बागमती म्युनिसिपल पार्क इत्याख्यस्य उद्यानस्य निर्माणस्य विश्रामगृहनिर्माणस्य च क्रमे भ्रष्टाचारो विहित इत्यारोप्य अधिकार दुरुपयोगानुसन्धानायोगेन ह्यो विशेष न्यायालये आरोपपत्रमिदं पञ्जीकारितं वर्तते। अधिकार दुरुपयोगानुसन्धानायोगेन सायेन सहितानां मधेस सर्वकारस्य अर्थमन्त्रालयस्य तात्कालिकसचिवस्य गजेन्द्रकुमार ठाकुर इत्यस्य सर्लाई जनपदस्य बागमती नगरपालिकायाः प्रमुखस्य भरतकुमार थापाविदस्य उपप्रमुख लीलाकुमारी मोक्तान इत्यस्याः प्रमुख प्रशासकीयाधिकृतस्य विमल कुमार पोखरेलस्य मधेस सर्वकारस्य अर्थमन्त्रालयस्य उपसचिवस्य उद्धवराज न्यौपानेविदस्य बिकोई धुलिखेल जेबी इति निर्माण संस्थायाः प्रतिनिधेः युवराज पोखरेलस्य च विरुद्धे भ्रष्टाचारस्य आरोपे अभियोगपत्रं पञ्जीकारितं वर्तते। प्रधान न्यायाधीश डाक्टर मनोज कुमार शर्मा भारतीय समकक्षिणः सूर्यकान्तस्य मैत्रीपूर्ण निमन्त्रणायां ह्यः भारतं प्रति प्रस्थितो वर्तते। भ्रमणस्य क्रमे प्रधान न्यायाधीशेन डाक्टर शर्मणा भारतस्य प्रधान न्यायाधीशेन सूर्यकान्तेन सह द्विपक्षीय मेलवार्तायाः कार्यक्रमः निश्चितोऽस्तीति सर्वोच्च न्यायालयस्य प्रवक्ता अर्जुन प्रसाद कोइराला असूचयत्। बाजुरा जनपदस्य नव एव स्थानीयस्तराः जलविप्लवानां भूस्खलनानां च उच्चसङ्कटे सन्ति। जनपद विपद व्यवस्थापन समितेः तद्विक्रमवर्षीयायाः विपत्पूर्वकार्यप्रतिकार्य योजनायाः अनुसारेण जनपदस्य आसन्न 50%+ वसतयः उच्चैः सङ्कटे सन्ति। 15%+ वसतयः तत्कालं सुरक्षितस्थानेषु स्थानान्तरणस्य स्थितौ च वर्तन्ते। भृगुसंरचना दुर्बलभौगोलिकसंरचना नद्यः कर्तनम् अव्यवस्थितरूपेण मार्गनिर्माणं जलवायुपरिवर्तनं च इत्यादिभिः कारणैः आजनपदं विपदः सङ्कटः वर्धमानोऽस्तीति बाजुराजनपदस्य प्रमुखजनपदाधिकारी डोरेन्द्र निरौला असूचयत्। नवलपुर जनपदस्य हुप्सेकोट ग्रामपालिकायाः पञ्चमौडा क्षेत्रस्य केरुङखोला नद्याः स्रोतस्थले राम्चे भूस्खलनस्य कारणेन द्वाचत्वारिंशत् गृहपरिवाराः उच्चसङ्कटे सन्तीति जनपद विपद व्यवस्थापन समित्या निष्कर्षः प्रकाशितो वर्तते। समित्या परह्य स्थलगतानुगमनस्य पश्चात् वसते सर्वाणि अपि गृहाणि उच्चैः सङ्कटे सन्तीति निश्चित्य तत्कालं सुरक्षितस्थानेषु स्थानान्तरयितुं दीर्घकालिकरूपेण एकीकृत पुनःस्थापनायाः योजनां निर्मातुं च परामृष्टं वर्तते। पक्षिषु दृष्टस्य बर्ड् फ्लू नाम्नः पक्षिजरोगस्य सङ्क्रमणस्य नियन्त्रणं जायमानं वर्तते। पशु सेवा विभागस्य महानिर्देशकस्य डाक्टर उमेश दाहालस्य अनुसारेण अस्यैव श्रावण मासस्य प्रथम दिवसात् बर्ड फ्लू नाम्नो रोगस्य संक्रमणं दृष्टं नास्ति। विभागस्य वरिष्ठ पशु चिकित्सक डाक्टर मुकुल उपाध्याय सर्वकारस्य तत्परतायाः कृषकाणां सहयोगस्य च कारणेन बर्ड फ्लू नाम्नः पक्षिज रोगस्य नियन्त्रणं सम्भूतम् अस्ति। अतः परम् अतिरिक्तस्य संक्रमणस्य सम्भावना दृष्टा नास्ति इति च असौ असूचयत्। शिक्षा खेलकूद मन्त्री सस्मित पोखरेलः विश्वविद्यालयेषु प्राज्ञिक स्वायत्ततां प्रवर्ध्य दलीय भागावण्टनस्य प्रवृत्तेः समापनाय बलं ददाति। त्रिभुवन विश्वविद्यालयस्य सप्तषष्टितम वार्षिकोत्सवस्य अवसरे ह्य कीर्तिपुरस्थाने आयोजिते कार्यक्रमे विश्वविद्यालयस्य सहकुलपतिश्च शिक्षामन्त्री पोखरेलः विश्वविद्यालयस्य प्राचीन प्रतिष्ठां संरक्ष्य नूतनाध्यायान् प्रारब्धुं प्राज्ञिक स्वायत्ततायाः अतिरिक्त प्रवर्धनं कृत्वा दलीय भागावण्टनस्य प्रवृत्तेः अन्तं कृत्वा योग्यता प्रणाल्याः क्रियान्वयनं विधातुम् अन्वरुणत्। अवसरे मन्त्री पोखरेलः विश्वविद्यालयेषु सर्वकारस्य पक्षतः कथं विदोपि हस्तक्षेपः बलसर्जनं च न भविष्यतः इति चर्चयन् नवनियुक्तान् उपकुलपतिना सहितान् विश्वविद्यालयस्य अधिकारिणः सुशासनस्य प्रत्याभूतेः दापनत्वेन कार्यं कर्तुम् अन्वरुणत्। सूचना संचार मन्त्री डाक्टर विक्रम तिमलसिन्हा नेपाली चलचित्र क्षेत्रस्य उद्योगस्य मान्यतां क्षेत्राय उद्योगस्य मान्यतां दापयितुम् आवश्यक नीतिगत प्रयासः करिष्यते इति प्रतिबद्धतां व्यनक्ति। चलचित्रक्षेत्रस्य समस्यायाः विकासप्रवर्धनस्य उद्योगानां रूपेण मान्यतायाः प्रदापनस्य च विषयेषु चलचित्रकर्मिभिः ह्यो मन्त्रालये विहिते विमर्शने मन्त्री डाक्टर तिमलसिन्हा चलचित्रक्षेत्रस्य उद्योगरूपेण विकासाय सर्वकारः अनुकूलो वर्तते इति प्रत्यपादयत्। नेपाली काङ्ग्रेस दलस्य सभापतिः गगन कुमार थापा विश्वेश्वर प्रसाद कोइरालाभिधस्य आदर्शानाम् अनुसरण सह राजनीतौ परोपकारस्य कल्याणस्य च कार्येषु प्रवर्तितुं कार्यकर्तृन् अनुरुणद्धि। काङ्ग्रेस दलस्य केन्द्रीय नीति अनुसन्धान प्रशिक्षण प्रतिष्ठानेन विपि स्मृति दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे सभापतिः थापा एवम् अगदत् इति समाचाराः।